Page 23.
चतुर्थः पाठः क्रीडा स्पर्धा पृष्ठ संख्या 23 से लेकर पृष्ठ संख्या 29 तक। इसमें संवाद के माध्यम से सर्वनाम का प्रयोग बताया गया है। संवाद इस प्रकार है। हुमा, यूयम कुत्र गच्छथ? इंदरः, वयम विद्यालयम गच्छामः। हेकनः, तत्र क्रीडा स्पर्धाः सन्ति, वयम अपि खेलिष्यामः। रामचरणः, किं स्पर्धाः केवलं बालकेभ्यः एव सन्ति? प्रसन्ना, नहि, बालिकाः अपि खेलिष्यन्ति। रामचरणः, किं यूयं सर्वे एकस्मिन् दले स्थ अथवा पृथक् पृथक् दले? प्रसन्ना, तत्र बालिकाः बालकाः च मिलित्वा खेलिष्यन्ति। फेकनः, आम्, बैडमिंटन क्रीडायां मम सहभागिनी जूली अस्ति।
Page 24.
प्रसन्ना, एतत् अतिरिक्तं कबड्डी, नियुद्धं, क्रिकेटं, पादककन्दुकं, हस्तकन्दुकं, चतुरङ्गः इत्यादयः स्पर्धाः भविष्यन्ति। इन्दरः, हुमे, किं त्वं न क्रीडसि? तव भगिनी तु मम पक्षे क्रीडति। हुमा, नहि, मह्यं चलचित्रं रोचते, परम् अत्र अहं दर्शकरूपेण स्थास्यामि। फेकनः, अहो, पूर्णः कुत्र अस्ति? किं सः कस्यामपि स्पर्धायां प्रतिभागी नास्ति? रामचरणः, सः द्रष्टुं न शक्नोति। तस्मै अस्माकं विद्यालये पठनाय तु विशेषव्यवस्था वर्तते, परं क्रीडायै प्रबन्धः नास्ति। हुमा, अयं कथमपि न न्यायसङ्गतः। पूरणः सक्षमः, परं प्रबन्धस्य अभावात् क्रीडितुं न शक्नोति। इन्दरः, अस्माकं तादृशानि अनेकानि मित्राणि सन्ति, वस्तुतः तानि अन्यथा समर्थानि। फेकनः, अतः वयं सर्वे प्राचार्यं मिलामः, तं कथयामः, शीघ्रमेव तेषां कृते व्यवस्था भविष्यति।